इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी अथ वार्ताः प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रभृति रूस ऑस्ट्रेलिया देशयोः आधिकारिक यात्रायां भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी जून मासस्य अष्टमे दशमे च दिनांकयोः रूस देशस्य द्विदिनात्मके यात्राक्रमे देशद्वयगते शिखर सम्मेलने भागं भजिष्यति। तत्र द्वयोः देशयोः बाह्या परस्य सम्बन्धस्य विस्तृत समीक्षायाः संभावना अस्ति। एतस्य अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी ऑस्ट्रेलिया देशं प्रति गमिष्यति। यात्रायाः प्रथमचरणे श्रीमोदी रूस देशस्य राष्ट्रपति व्लादिमीर पुतिन इत्यस्य आमन्त्रणे द्वाविंशतितमे भारत रूस वार्षिक शिखर सम्मेलने भागं गृह्णीयात्। अस्या योजनं मास्को नगरे भविता। नेतारः द्वयोः देशयोः बहुपक्षीय सम्बन्धानां विषये समीक्षां कुर्युः तथा च परस्पर हितस्य समकालीन क्षेत्रीय वैश्विक विषयेषु विचाराणाम् आदान प्रदानं कुर्युः। रूस यात्रायाः समापनानन्तरं प्रधानमन्त्री मंगलवासरे ऑस्ट्रेलिया देशं यास्यति। एकचत्वारिंशत् वर्षानन्तरं भारतीय प्रधानमन्त्रिणः ऑस्ट्रेलिया देशस्य प्रथमा यात्रा भवेत्। भगवतः श्रीजगन्नाथस्य भगवतः बलभद्रस्य देव्याः सुभद्रायाः भगवतः सुदर्शनस्य च विश्वप्रसिद्धा रथयात्रा गतसायं ओडिसानगरस्य पवित्रे पुरी नगरे आरब्धा, यत्र देवानां रथत्रयं लुण्ठ्यते। तत्र ग्राण्ड ट्रंक मार्गः भक्तानां समुद्ररूपेण परिवर्तितः। राष्ट्रपति द्रौपदी मुर्मू रथ परिक्रमां कृत्वा देवानां पुरतः प्रणामं कृतवती। रथमाकर्ष्य भगवतः पवित्रं दर्शनं प्राप्तुं विश्वस्य विभिन्नेभ्यः भागेभ्यः लक्षशः भक्ताः समागताः सन्ति। श्रीजगन्नाथमन्दिरस्य सिंहद्वारस्य पुरतः रथ स्थितः आसीत्। अयमुत्सवः पवित्रस्त्रित्वस्य स्वमातुल्याः गुडिचा देव्याः मन्दिरं प्रति यात्रां निर्दिशति। अष्टदिनानन्तरं तेषां पुनरागमनात् समाप्यते। ओडिसाराज्यस्य पुरीनगरस्य द्वादश शताब्द्याः श्रीजगन्नाथदेवालयात् भगवतः जगन्नाथः भगवतः बलभद्रः देवी सुभद्रा भगवतः सुदर्शनः च बाह्यलोकं प्रति दिव्ययात्रा ह्यः अपराह्णे समारब्धा। दाडीपहाड़ी इति नाम्ना विस्तृत विधिना सह यस्य शाब्दिकः अर्थः अस्ति यत् घण्टायाः काहली इत्यस्य तेगडी इत्यस्य च वाद्यानां नादस्य ध्वन्या सह अनेकानां भक्तानां सह गमनार्थं क्रमेण अग्रे गमिष्यताम् इति। दक्षिणकश्मीरस्य कुलगाम जनपदे सुरक्षाबलेन आतंकवादिभिः सह संघर्षे षडातंकवादिनः व्यापादिताः। फ्रिसल चिन्नी गाम क्षेत्रे एवं मोटेर गाम जनपदे अयं संघर्षः शनिवासरे मध्याह्ने समारब्धः यदा आरक्षिदलेन आतंकवादिनाम् आस्थानस्य सूचना प्राप्ता। आरक्षक महानिदेशकेन आर स्वेनेन वार्ताहरैः सह संवादे एतत् पुष्टीकृतम्। सर्वोच्च न्यायालये अद्य नीट यूजी सम्बद्धानां विभिन्न याचिकासु श्रवणं भविष्यति, यस्मिन् नूतन परीक्षायाः याचिकाः अपि सन्ति। सर्वोच्च न्यायालयस्य संजालपुटे प्रसारित कारण सूचनानुसारि षड्विंशति याचिकाः मुख्य न्यायाधीशस्य डीवाई चन्द्रचूडस्य न्यायाधीश जेवी परदीवाला इत्यस्य मनोज मिश्रस्य च पीठस्य समक्षं वादश्रवणाय आगमिष्यति। क्रिकेट क्रीडायां हरारे इत्यत्र भारतेन जिम्बाब्वे दलं शतं धावनांकैः पराजितम् इति वार्ताः।